ॐ गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ ऐश्वर्या भगिनी
ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः।
धन्यवादः भगिनी। नम सर्वेभ्यः तत्र क्रियापदानाम् अभ्यासेन आरम्भं कुर्मः अद्य। अस्तु, भावना भगिनी कर्तुमिच्छति वा?
हा भगिनि,
पट् धातोः रूपाणि वदति वा? लट् लोट् लङ् लृट् इत्युक्ते भविष्यत् अन्ते।
ओके,
लट् लकारे आरम्भं करोतु। पठति,
पठति, पठतः, पठन्ति, पठसि, पठतः, पठत्, पठामि, पठथ, पठामि, पठावः, पठामः। Then,
लोट्
लोट् पठतु, पठतां, पठन्तु, पठ, पठतं, पठत्त।
हा, तत्र मध्यमपुरुषे पुनः वदतु एकवचनं।
पठ,
पठ,
पठतं।
हा, तत्र कुत्रापि पठ इति नास्ति, पठा,
पठा, पठतं, पठत्त।
हा, सम्यक्।
पठानि, पठाव, पठाम। लृट्
लृट् अथवा लङ् किमपि।
पठस्यति, पठिष्यतः, पठिष्यन्ति।
तत्र एकवचने पठिष्यति, पठिष्यतः, पठिष्यन्ति।
पठिष्यसि, पठिष्यतः, पठिष्यथ, पठिष्यामि, पठिष्यावः, पठिष्यामः।
लङ् अधुना
अपठत्, अपठतम्,
अपठताम्,
सोरि सोरि, अपठत्, अपठताम्, अपठन्, अपठः, अपठतम्, अपठत्त, अपठ, अपठहम्, न अपठम,
न न अपठम्, अपठम्,
अपठम्, अपठाव, अपठाम।
सम्यक् भगिनी। अग्रे तत्र ऐश्वर्या भगिनी स्पर्ध इति धातुं स्वीकृत्य कर्तुम् इच्छति वा? आत्मनेपदी धातुः स्पर्ध, तत्र लट् अपि लोट् करोतु।
स्पर्धते, स्पर्धेते, स्पर्धन्ते, स्पर्धसे, स्पर्धेते, स्पर्धन्, स्पर्धद्वे, स्पर्धे, स्पर्धे, स्पर्धावहे, स्पर्धामहे।
हा, तत्र एकं वक्तुम् इच्छामि। सम्यक्, लट्लकारे उत्तमपुरुषे सर्वत्र तत्र एकारः एव, स्पर्धे, स्पर्धावहे, अन्ते स्पर्धा महे, मेक्स् इट् ईजियर् टु रिमेम्बर्। हा, लोट्लकारे
लोट्लकारे
स्पर्धतां,
स्पर्धतां, स्पर्धतः,
स्पर्धेतां
स्पर्धेतां
तत्र तः नागच्छति तत्र तां तां अन्ताम् इति प्रथम पुरुषे स्पर्धतां स्पर्धेतां स्पर्धन्ताम्
स्पर्धन्ताम् स्मरणे नास्ति भगिनी
न न दृष्ट्वा वक्तुम् इच्छति वा
दृष्ट्वा हा पत्रं नास्ति
नास्ति वा अस्तु तत्र पश्यतु अधुना दृश्यते खलु स्क्रीन् मध्ये स्थापितवती
लोट् लकारे
क्षम्यताम् एकक्षणं अस्तु तत्र
स्पर्धतां स्पर्धेतां स्पर्धन्तां स्पर्धस्व स्पर्धेतां स्पर्धध्वं स्पर्धे स्पर्धावहे स्पर्धावहै स्पर्धामहै
पुनः वदतु उत्तमपुरुषे एकवचने किं स्पर्धे अस्ति वा तत्र स्पर्धै
स्पर्धै
तत्र आत्मनेपदी धातूनां कृते लोट्लकारे उत्तमपुरुषे सर्वत्र ऐ आगच्छति इति स्मरन्तु लट्लकारे ए आगच्छति लोट्लकारे ऐ वदतु भगिनि अधुना
स्पर्धै स्पर्धावहै स्पर्धामहै
अग्रे
कर्तरी विधिलिङ्ग् लकारः
न न तत्र लङ् इति अस्ति खलु कर्तरी लङ् लकार आत्मनेपदम् अस्पर्धतकारः
अस्पर्धत अस्पर्धेताम् अस्पर्धन्त अस्पर्धताः अस्पर्धेथाम् अस्पर्धध्वम् अस्पर्धे अस्पर्धै
न तत्र धेव अस्पर्धे
अस्पर्धे अस्पर्धावहि अस्पर्धामहि
अपि च अस्माकं लुट् लकारः कुत्र गतं लोट् हा तत्र
लुट् स्पर्धिष्यते स्पर्धिष्येते स्पर्धिष्यन्ते स्पर्धिष्यसे स्पर्धिष्येथे स्पर्धिष्यध्वे स्पर्धिष्ये स्पर्धिष्यावहे स्पर्धिष्यामहे
सम्यक् तर्हि ते सन्ति आत्मनेपदी स्पर्ध इति धातोः रूपाणि लटि लोटि लङ्गि लृटि अस्तु अग्रे धन्यवादः भगिनि सुन्दरं महोदय तत्र पा इति धातुं स्वीकृत्य करोति वा
भगिनि या टेल् मी
पा इति धातुः तत्र पा इति धातोः प्रथम पुरुषे एकवचने किं भवति इति वदति वा
पा इत्युक्ते प्रथम प्रथम सारी
पा इति धातु ओरिजिनली द धातु इस् पा बट् वी हव् सीन् डिफ्रेण्ट् form in the lakaras of it do you remember what it is
sorry bhagini
drinking iti kim
oh,
udaharanam
okay that is pitah right
pibati iti bhavati lakare pibati iti
pibatihi
na drushtva vaktum shaknuti va athava drushtva vaktum ichati va
pibatah pibanti पिबसि पिबतः पिबत पिबामि पिबावः पिबामः
लोट्
लोट् लकारः लोट् लकारः लोट् लकारः वन्स् अगेन्
लोट् लकारः आल्वेस् स्टार्ट्स् वित् तु पिबतु पठतु इति
अच्छा
अस्तु तत्र दृष्ट्वा एव वदतु महोदय
न न पिबतु पिबतां पिबन्तु पिब ओ यु आलरेडी नो पिब पिबतां पिबत
तत्र पिबताम् इति प्रथमपुरुषे एव भवति मध्यम द्विवचने मध्यमपुरुषे ह्रस्व सो सर्वे स्मरन्तु तत्र पिबतम् तत्र प्रथमपुरुषे ताम् इति अस्ति चेत् मध्यमपुरुषे तम् इति भवति
पिबावः पिबामः
विसर्गः अस्ति वा तत्र
न सारि सारि पिबामि पिबाव पिबाम
एकवचने पुनः वदतु
एकवचने पिबानि
पिबानि पिबाव पिबाम
पिबाम
अग्रे लङ्
लङ् लकार पिबत
न लङ् इत्युक्ते भूतकाले so what happens to all of them
okay
what varna comes
patitavan pitavan
na na tavatu mastu see patitavan and all that they are tavatu pratyaya athava ta pratyaya here these are all thing pratyaya pratyayas so these rupas are different
okay
so patati ityasya lang kim bhavati
अपठत् दर्पि
हा तथा एव अत्रापि पिबति इत्यस्य
अपिबत्
अपिबत्
अपिबत् अपिबताम् अपिबतन्
अपिबन्
अपिबन् ओके अपिबन् अपिबतः
न पठ् इति किं भवति
अपटः
एकवारं पट् इत्यस्य वदतु लङ्ग्लट्
अपठत् अपठताम् अपठन् अपठः अपठताम् अपठत्
तत्र अपठत् अपठतम्
बहुवचने अपठत ओन्लि ओके ओके अपठत अपठम् अपठावः अपटाव अपटम् अपटाव अपटाम
अधुना पिब् इत्यस्य कृते वदतु
अपिबत् अपिबताम् अपिबतम्
अपिबन्
देन् अपिबतः अपिबतः
न तत्र अस्तु तत्र दृष्ट्वा एव वदतु महोदय स्क्रीन् मध्ये स्थापितवती
अपिबः अपिबम् ओके अपिबम् अपिबम् अपिभाव अपि अपिबाम
बिकास् इकार कम्स् देर् इट् बिकम्स् कन्फ्यूसिङ्ग् हा अत्र पश्यतु, अधुना दृष्ट्वा एव वदतु, लृट् लकारे भविष्यत्काले, बिकास् द रूपाणि आर् डिफ्रेण्ट्.
लृट् लकारे पास्यति, ओ दट् इस् आल्सो डेङ्कोलि, पास्यति, पास्यतः, पास्यन्ति, पास्यसि, पास्यतः, पास्यथ, पास्यामि, पास्यावः, पास्यामः.
अधुना अत्र सर्वे धातुः कः इति पश्यन्तु, पा इति धातुः, अतः तत्र लृट् लकारे पा इति आगच्छति, न तु पिबा. अपि च अन्यत् एकम् अपि दर्शयामि, पिबति इदं इति कथं भवति इति किञ्चित् तत्र तत्र सर्वे पश्यन्तु यत्र मम कर्सर् अस्ति, तावत्पर्यन्तं पा इति एव अस्ति धातुः. एतानि देर् आर् मोडिफिकेशन्स् दट् आर् हेपनिङ्ग् वित् डिफ्रेण्ट् सूत्रास् कमिङ्ग् इन् डूयिङ्ग् देर् वर्क्, बट् अत्र पिबा इति भवति. सो दिस् इस् द सूत्र दट् मेक्स् इट् हेपन्, एण्ड् दिस् इस् दिस् लाङ्ग् सूत्र, एण्ड् किन्तु सो इट् डस् इट् इट् चेञ्जस् द धातुरूप फ्रम् औपदेशिक टु लौकिक फार् मेनी धातुस्, बट् टुडे विल् ओन्ली लुक् अट् पा इति धातु. पा धातु पिबा इति भवति एतेन सूत्रेण, पा पिबति तत्र अस्ति, पा पिबति. एण्ड् फर् स्था तिष्ठति इति अस्ति, तत्रापि एतेन सूत्रेण, स्था इति तिष्ठति. ऐ एम् शोयिङ्ग् जस्ट् द फेमिलियर् वन्स्. एण्ड् दाण् इति यच्छति इति अस्ति, दा धातुः. देर् आर् टु डिफ्रेण्ट् धातुसु धातुस्, दिस् इस् नाट् इन् गिविङ्ग् दिस् दाण् इति अपि, हा तदेव दाने एव, दाण् इति धातुः यच्छति. सो पश्यति इति सर्वे वयं सर्वे जानीमः, दृश्य दृश्य इति पश्यति इति भवति एतेन सूत्रेण इति. अतः तत्र पा इति धातु अस्ति चेदपि पिबा इति भवति, किन्तु भविष्यत्काले पा इति एव आगच्छति, अतः पास्यति इति भवति. अस्तु, हा सम्यक् महोदय. अग्रे तर्हि कुत्र स्मः वयम् इत्युक्ते, तर्हि अस्माकं द्वितीयविभक्तीनाम् अभ्यासः अनुवर्तते. एतावता अस्माभिः त्रिषु वचनेषु लिङ्गेषु च द्वितीयविभक्तीनाम् अभ्यासः कृतः. लट् लोट् लृट् च प्रयोगे द्वितीयां योजयित्वा अभ्यासः कृतः. त्वान्त लेबन्त तुमुनन्त शत्रन्त च पदानां पूर्वं द्वितीया भवति इति ज्ञातम्. भूतकालार्थे तवतु प्रत्ययानां पूर्वं द्वितीयां योजयित्वा अभ्यासः कृतः. अपि च भवद्भिः वाक्यानि अपि रचितानि. तर्हि अद्य परितः गृहपाठः दत्तः तदासीत् एतत् अयं परितः इति पदम् उपयुज्य, उभयतः इति पदम् उपयुज्य एकैकं वाक्यं लिखन्तु इति. सो वन् सेण्टेन्स् यूसिङ्ग् परितः, अनदर् यूसिङ्ग् उभयतः. सो द फोकस् हेस् टु बि आन् द ग्रामर् इति, बिकास् द यूसेज् आफ् द वर्ड् नीड्स् टु बि अण्डर्स्टुड् वै वेर् द्वितीया कम्स् when we use these two words iti. So sarve krutavanta haiti manne adhuna abhyasam arambham kurmaha. Tatra sundara mohodaya bhavane va arambham karoti va,
ha
karami va, dve vakya ubhayatah paritah,
paritah ganga nadim sorry
samyak eva
भवनं परितः वृत्ति अस्ति.
किं अस्ति
वृत्ति? इस् फेन्स्.
ओ अस्तु अस्तु, वृत्तिः इति अस्ति वा?
वृत्ति ओन्लि.
I don't think it will be just vritti. Probably visarga is there. Iti manye.
Manye. Vritti hasti.
Vritti. Haan. Prayashah vritti hi tatra mohodaya. Vritti hi asti. Asto samyak.
Okay. Bhavanam paritah vritti hasti. Vipanim. Paritah. कारयानाः सन्ति.
एकक्षणं, तत्र दृष्टवती वृत्तिः इति एव अस्ति स्त्रीलिङ्गे. तत्र विसर्गः अस्ति चेत् उच्चारणं करणीयं. भवनं परितः वृत्तिः अस्ति.
वृत्तिः अस्ति.
हा, अधुना किम् उक्तवान् द्वितीयवाक्यं?
विपणिं परितः कारयानाः सन्ति.
हा, तत्र विपणि इति तत्र लिङ्गं किम्?
विपणि श्रीलिङ्गं.
विपणिः इति विसर्गः अस्ति तत्र. सि यूजुवलि वेन् देर् इस् अ स्वर इन् दि एण्ड् दे डु नाट् हेपन् वितौट् ए विसर्ग. ई आ अस्ति चेत् तत्र विपणि इति प्रातिपदिकं भवति. विपणिः तत्र विसर्गः अस्ति एव स्त्रीलिङ्गे, डिपेण्डिङ्ग् बट्
अस्तु.
ह्रस्व इकारान्त स्त्रीलिङ्ग अस्ति चेत् सामान्यतया विसर्गः अस्ति तत्र. विपणिं परितः.
विपणिं परितः.
अधुना कारयानम् इति लिङ्गं किम्?
कारयानं नपुंसकलिङ्ग.
हा, बहुवचने किं भवति?
कारयानानि. ओके.
कारयानं फलं फलानि, यानं यानानि.
यानानि अस्तु.
पुनः वदतु द्वितीयवाक्यं.
विपणिं परितः कारयानानि सन्ति.
हा, तत्र उभयतः कृतवान् वा?
गङ्गानदीम् उभयतः भक्ताः सन्ति. भक्ताः.
अस्तु अस्तु, सम्यक्, भक्ताः सन्ति. सम्यक् महोदय.
ओ, अस्तु. एकमपि अस्ति. मार्गम् उभयतः गृहाः सन्ति. दट् इस् सैड्स् आफ् द रोड्, बोत् सैड्स् आफ् द रोड् बिल्डिङ्ग्स्.
अस्तु
अस्तु, धन्यवादः.
धन्यवादः महोदय. अस्मिता भगिनी करोति वा अग्रे?
आं भगिनि. उद्यानानि राजप्रासादं परितः सन्ति. राजप्रासादं, किङ्ग्स् पेलेस्.
सम्यक्, उद्यानानि सन्ति.
आरक्षकाः लुटेरम् उभयतः सन्ति.
किम् उक्तवती? आरक्षकाः
लुटेरं.
लुटेरम् इत्युक्ते
राबर्.
लुटेरः इति अस्ति वा?
बोथ् साइड्स् आफ् द राबर्.
ओ, दृष्टवती वा? अहं न जानामि तत् पदम्. अस्तु, लुटेरः इति अस्ति वा? द्रष्टव्यं भगिनि.
लुण्टाकः इति कतिवारं कथायाम् आगतं भगिनि?
लुण्टारः वा?
लुटेर
इति न श्रुतवती अतः न जानामि.
भगिनि, इवन् दट् वर्ड् लूट् द ब्रिटिशर्स् हव् लूटेड् फ्रम् अस् ओन्लि.
अस्तु, किन्तु लुण्टार इति किं तत्र? ऐश्वर्या भगिनी, लुण्टार इत्युक्ते?
लुण्टाकः इति श्रुतं भगिनि.
लुण्टाकः,
चोरः. लुण्टाकः चोरः इति अर्थे.
हा, अस्तु, तत्र अस्मिता भगिनी
चोरं
लुटेरा इति नास्ति इति मन्ये भगिनी तत्र लुण्टाकः लुण्टाकः इति उपयुज्य वदतु
लुण्टाकः लुण्टाकं लुण्टाकं उभयतः सन्ति
आरक्षकाः सन्ति
आरक्षकाः सन्ति
सम्यक् हा सम्यक् ऐश्वर्या भगिनी लुण्टाकः
लुण्टाकः धन्यवादः
सम्यक् भगिनी वाक्ये सम्यक् अस्मिता भगिनी अस्तु अग्रे तत्तु महोदय करोति वा
अहं स्टेटन् द्वीप वसामि अत्र परितः समुद्रम् अस्ति
तथा न भवति महोदय तत्र परितः इत्यस्य पूर्वं किं भवनीयम् अत्र इति न भवति अत्र इति भवति चेत् परितः इत्यस्य तत्र उपयोगं सम्यक् नास्ति न अधुना परितः उभयतः इति वाक्ये सन्ति चेत् वेन् दोस् वर्ड्स् कम् वाट् वि नीड् टु रिमेम्बर् इस् वाट् हेपन्स् बिफोर् देम् वाट् पदं कम्स् बिफोर् देम् सो यु आर् ट्रैङ्ग् टु से सरौण्डिङ्ग् सम्थिङ्ग् अथवा आन् बोत् सैड्स् आफ् सम्थिङ्ग् सो वेन् यु यूस् इट् यूजुवल् इन् अदर् केसस् वी केन् यूस् षष्ठी अथवा पञ्चमी so the point here is we cannot use any other vibhakti other than
dvitiya.
Which vibhakti can we use dvitiya so where should the dvitiya come
so atra samudram paritah asti
so you are trying to say samudra is surrounding
yes
okay so what is it surrounding
island
So, the one that is being surrounded will take dvitiya.
Okay. So, atra dvipam...
Atra na, atra naastu. Naasti. So, just...
Samudram asti? Samudra?
No, no. Yatha, so like examples were given just now by others. Tatha eva karotu. So you need the place that is being surrounded and what it is surrounded by. So the place gets dvitiya. Make a sentence like that.
Which?
Satan dvipam iti uktavan khalu.
Dvipam?
So... स्टाटन् द्वीपं द्वीपम् इति कीदृशविभक्तिः अधुना कीदृशी विभक्तिः
द्वितीया विभक्ति द्वीपं
द्वीपः इति अस्ति द्वीपं परितः
परितः
समुद्रे
अस्ति
समुद्रः अस्ति
समुद्रः ओके सो समुद्रः प्रथमा विभक्ति
अस्ति इति कृत्वा सम्टैम्स् वि इट् इस् ईज़ि टु फर्गेट् दट् बट् या इट् अस्ति इति कर्मपदं न स्वीकरोति अतः प्रथमविभक्ति
ओके
सो बट् यु अण्डर्स्टाण्ड् द यूसेज् रैट् सो परितः ईस् सेयिङ्ग् संथिङ्ग् इस् बीङ्ग् सरौण्डेड् बै संथिङ्ग् सो दट् संथिङ्ग् गेट्स् द्वितीया And the thing that is surrounding it comes late after that. Paritaha iti. So, ubhayataha karotu tatha eva?
Mama upitikam ubhayataha pustakani unnata siti asti.
Astu, tatha tavateva paryaptam bhavati. Mama upitika iti lingam kim?
Stri lingam.
हा अतः दीर्घः भवति उत्पीठिकाम् उभयतः पुस्तकानि सन्ति
पुस्तकानि सन्ति ओके
सो यु वाण्टेड् टु से उन्नतानि
ऐ वाज़ ऑन द साइड से वेरी टॉल लाइक अ होल स्टैक ऑफ पुस्तकानि
अस्तु तत्र बहूनि इति वदामः तत्र बहूनि पुस्तकानि सन्ति इति
okay.
उन्नतस्थित्यां सन्ति इति वक्तुम् इच्छति भवान् बट् दट् विल् नीड् सम्थिङ्ग् एल्स् देर् टु सेव् स्टाक्स् सो स्टाक्स् इति न जानामि किं भवति इति बहूनि पुस्तकानि कोऽपि जानन्ति वा तत्र हीप्स् इति स्टाक्स् इति राशि इति भवति पुस्तकराशिः अस्ति इति वक्तुं शक्नुमः तत्र मम उत्पीठिकाम् उभयतः पुस्तकराशिः अस्ति अस्ति किमर्थं राशिः इति एकवचने एव पुस्तकराशिः समस्तपदम् किन्तु अवगतं खलु सो हौ टु यूस् दीस्
अहं जानामि
अस्तु अस्तु तुलसी भगिनी करोति वा अग्रे
भगिनी वस्त्रापणं परितः धन्यापणाः स्थितः स्म
वाट् आपणः
वस्त्रापणं परितः धान्यापणाः स्थित स्म
इति न भवति सन्ति इति एव पर्याप्तं तत्र यु आर् ट्रैङ्ग् टु यूस् सा प्रत्ययः स्थिताः सन्ति इति बट् इट्स् नाट् नीडेड् देर् सन्ति इस् इनफ् वेन् वी वाण्ट् टु यूस् स्थिताः सन्ति मीन्स् देर् हेस् टु बि अ रीसन् लैक् हौ आर् दे तेर् इत्युक्ते देन् वी केन् यूस् बट् यु आर् सेयिङ्ग् देर् आर् धान्य आपणास् सरौण्डिङ्ग् दिस् वन् सो तावदेव सन्ति उभयतः
उत्पीठिका उभयतः आसन्दाः सन्ति
हा तत्र पुनः चिन्तयतु उत्पीठिका इति किं भवति
उत्पीठिकां द्विवचन द्वितीय एकवचन
हा
उभयतः
आसन्दाः सन्ति सम्यक् भगिनी तावत् स्मरामः तत्र द्वितीया भवति इति मुख्यविषयः द वन् दट् इस् बीङ्ग् सरौण्डेड् हेस् टु टेक् द्वितीया इति मुख्यविषयः तत्र सो दट् इस् वाट्
केन् ऐ गिव् वन् एक्साम्पल् ऐ एम् नाट् श्योर् गजौ लक्ष्मी वामतः दक्षिणतः च तिष्ठतः
गजौ तिष्ठतः हा तत्र सो देर् देर् इस् नो रूल् देर् दट्स् जस्ट् ए वाक्यं बिकास् देर् यू केन् से इट् लैक् लक्ष्म्याः हा सी दट् इस् द डिफ़्रेन्स् द वाट् युर् एक्साम्पल् वी केन् यूस् हियर् दट् इस् इफ् यु वाण्ट् टु से सम्बडि नेक्स्ट् टु सम्बडि आर् लैक् देट् दक्षिणतः वाट् एवर् देर् इट् डस् नाट् दिस् डस् नाट् कम् इन् दिस् रूल् इस् ओन्लि फार् परितः उभयतः बिकास् स्पेसिफिक्लि फार् दीस् वर्ड्स् वि हेव् टु यूस् द्वितीया फार् द पर्सन् दे आर्
सरौण्डिङ्ग्
अदर्वैस् लक्ष्म्याः दक्षिणतः वामतः वि केन् जस्ट् यूस् षष्टि देर् हा सम्यक् भगिनि उमा भगिनि
आं भगिनि भगिन्याः गृहं परितः हिमः अस्ति रामम् उभयतः लक्ष्मणः सीता च स्तः
सम्यक् भगिनि तावदेव अस्तु सुचिरा भगिनि
परितः क्षेत्रं परितः वृक्षाणि सन्ति
तत्र वृक्ष इति लिङ्गम्
प्रथमविभक्ति बहुवचनं
हा लिङ्गं
ओ यस् यस् इट् इस् पुल्लिङ्ग् वृक्षाः सन्ति सोरि
पुनः वदतु
क्षेत्रं परितः वृक्षाः सन्ति गृहं परितः सस्यानि सन्ति
उभयतः अपि करोतु
उभयतः मार्गम् उभयतः आपणाः सन्ति
सम्यक्
शैलिनी भगिनी
हा भगिनी कार्यालयं परितः मार्गाः सन्ति
परितः सन्ति वा
परितः मार्गाः
इत्युक्ते सरौण्डिङ्ग्
उभयतः उभयतः आपणम् आपणं परितः जनाः सन्ति
तावदेव सम्यक् अग्रे रवीन्द्रमहोदय
आं भगिनि कलाकारं परितः प्रशंसकाः सन्ति गणेशं उभयतः रिद्धि बुद्धि च इष्टः
अस्तु सम्यक् तावदेव वा अस्तु
आं भगिनि
हा सम्यक् महोदय मञ्जुला भगिनी
देवालयम् उभयतः द्वारपालकौ स्तः
देवालयम् उभयतः वा सो आन् बोत् सैड्स् आफ् द देवालय इति वक्तुम् इच्छति वा अस्तु
मार्गम् उभयतः लम्बदीपः सन्ति
लम्बदीपः स्ट्रीट् लैट्स् तत्र स्ट्रीट् लैट्स् इति किं वदामः तत्र दीपाः कोऽपि वदन्तु अधुना स्मरणे न आगच्छति दीपकम्बाः वा
दीपकम्बाः सन्ति
अस्तु मार्गम् उभयदीप मार्गदीपाः सम्यक् मार्गदीपाः इति मन्ये तत्र मार्गदीपाः स्तः
हनुमन्तं परितः वानराः सन्ति
सम्यक् अस्तु गिरिजा भगिनी करोति वा
आं भगिनि कार्तिकमासे मन्दिरं परितः दीपानि सन्ति
तत्र दीपा इति लिङ्गं किम्
दीपानि सन्ति
दीपानि तत्र न दीपा इति प्रातिपदिकं लिङ्गं प्रथमाविभक्ति किं भवति पूर्वस्मिन् वर्गे दृष्टवन्तः लिङ्गं
दीपं दीपौ दीपाः
हा प्रथमविभक्तौ दीपः दीपौ दीपाः इति भवति
दीपं दीपौ दीपान्
हा सन्ति इति अस्ति अतः दीपाः सन्ति इति एव देर् द्वितीया इट् डस् नाट् बिकम् ए कर्मपदं वि डोण्ट् यूस् द्वितीया फर् अस् धातु सो पुनः वदतु
कार्तिकमासे मन्दिरं परितः दीपाः सन्ति
कार्तिकमासे इति भवति अस्तु
उभयतः मम कार्यालयम् उभयतः उद्यानं सन्ति
सम्यक् कारयानम् उभयतः उद्यानम्
अस्ति
एकवचने अस्तु अस्तु सम्यक्
थैंक यू
अपि च रमेश महोदय करोति वा
नमस्ते भगिनि अहं देवालयं परितः अटनं कृतवान् नदीम् उभयतः वृक्षाः सन्ति
अस्तु सम्यक्
थैंक यू
अग्रे तनुजा भगिनी करोति वा
आम आम
हां
कृष्णम परितः गोपिकाः सन्ति कृष्णम् उभयतः धेनवः सन्ति
सम्यक् भगिनि धेनवः सन्ति धेनुः धेनु धेनवः इति भवति तत्र अस्तु ऐश्वर्या भगिनि
भगिनि शनिं परितः धूलिमण्डलानि सन्ति
मण्डलं हा मण्डलानि अस्तु
नासिकाम् उभयतः कपोलौ स्तः
अस्तु सम्यक् नासिकम् उभयतः कपोलौ स्तः अस्तु सम्यक् प्रयोगं सम्यक् अस्तु भावना भगिनि
हा भगिनि उभयतः मार्गम् उभयतः वृक्षाः सन्ति
अस्तु तत् कृतं किमपि अन्यत् वदति वा मार्गम् उभयतः अन्यत् किम् अस्ति
वाहनं
हा उभयतः वाहनम् इति एकवचने एकवचने एव वदति वा अथवा उभयतः इति अस्ति अतः तत्र बहुवचनं स्वीकरणीयम् on both sides
yeah vahanam
iti lingam vadatu
this is napusingling
bahuvachane kim bhavati
vahanani and next
vidyalayam vadatu ekavaram punah vadatu margam
par
उभयतः
वाहनानि सन्ति
पर्वत अथवा इफ् वी वाण्ट् टु से जस्ट् टु वन् आन् ईच् सैड् मार्गम् उभयतः वाहने स्तः इति भवति
विद्यालयं परितः वृक्षाः सन्ति
वृक्षाः सन्ति अपि च अन्यत् किं भवितुम् अर्हति अन्ये के सन्ति विद्यालयं परितः छात्राः सन्ति इति अपि वक्तुं शक्नुमः सर्वे कृतवन्तः खलु बृन्दा भगिनी करोति वा
आं भगिनि दक्षिणामूर्तिं परितः ऋषिगणान् तिष्ठन्ति
तिष्ठन्ति तत्र तिष्ठन्ति अपि अकर्मकधातुः अतः द्वितीया न भवति पुनः वदतु
दक्षिणामूर्तिं परितः ऋषिगणान्
ऋषिगणः इति एव पर्याप्तं तत्र बिकास् इन् गणा देर् आर् ऋषीस् सो ऋषिगणः अथवा
ऋषिगणाः सन्ति
ऋषिगणाः सन्ति अथवा ऋषिगणः अस्ति
अस्ति
अथवा ऋषयः ऋषिः
तिष्ठति
एकवचने देन् यु गणः इति ऋषिगणः तिष्ठति
ऋषिगणः तिष्ठति तिष्ठन्ति इस् नाट् द रैट् वर्ड् टु बि यूस्ड्
न बिकास् गणः इति एकवचने भवति गणे ऋषयः किन्तु गणः इति एकवचने
ओके गणाः तिष्ठन्ति भूमिं परितः चन्द्रमा what is rounding is what?
Pariyatanam karoti va?
Pariyatanam karoti.
Pariyatanam
karoti.
Ubhayataha, Abhina?
Ubhayataha. Krishnam ubhayataha Rukmini Satyabhama cha staha.
Samyak. Cha api staha iti bhavati tatra. Samyak bhagini. Astu. Sarve krutavantaha kalu? Agre gachamaha?
I have to do ma.
Oh, karotu bhagini.
Okay. Mama gramam paritaha vanani santi. Mahalakshmim ubayataha deepaha santi.
Samyak. Deepaha santi, gajaustaha. Iti.
Yes, ma'am. Thank you.
Samyak. Adhuna aspashtam iti manne sarvesham krute ubayataha paritaha iti yada vakyeshu agachati agachataha tada dvitiya kasya bhavati iti. So, ubhayataha paritaha ityasya purvam dvitiya bhavati. For whom? The one that is being surrounded. That padam takes on dvitiya iti smarantu. Gruham paritaha, udhyanam paritaha iti. Athava mam paritaha dvitiya. Kimapi asti iti. Vadane. Astu. Apicha anya eka hamshaha asit. Tatra pustake vipakti valaryam nasti, kintu dvitiya yaha vishaye eva, ataha vadanti asmi, tatra pashyantu yada adhi iti upasargaha, stha iti dhatoho krute, itite adhi yogaha tishtati, athava adhi yogaha vasati, ittane yoho purvam dvitiya bhavati, iti. Astu tatra tarhi. Uma bhagini tatra patatu ekavaram.
आम भगिनि अधि यो अधि
तत् अधि तिष्ठति अधि वसति
अधि वसति इत्यनयोः पूर्वं द्वितीया
इत्यनयोः
इति उदाहरणं उदाहरणानि पठतु
व्याघ्रः वनम् अधितिष्ठति विष्णुः क्षीराब्धिम् अधितिष्ठति पार्वती कैलासगिरिम् अधिवसति रमा कमलम् अधिवसति
तत्र पुनः पश्यन्तु व्याघ्रः वनम् अधितिष्ठति सामान्यतया तत्र किं भवति वदतु भगिनी उमा भगिनी सो इफ् वी वाण्ट् टु से सम्बडी इस् जस्ट् इफ् इट् इस् जस्ट् व्याघ्रः तिष्ठति अस्ति चेत् किं भवति वने विभक्तिः सप्तमी भवति वने तिष्ठति इति भवति किन्तु यदि अधि इति अस्ति तत्र तदा द्वितीया एव करणीयम् इति वार्ता तत्र वनम् अधितिष्ठति विष्णुः तत्र क्षीराब्धिम् इति अस्ति क्षीराब्धिः इति तत्र सामान्यतया तस्यापि सप्तमी भवति क्षीराब्धिः अस्ति चेत् मत्याम् इति क्षीराब्ध्यां तिष्ठति इति किन्तु अधि अस्ति चेत् क्षीराब्धिम् अधितिष्ठति तथा एव पार्वती कैलासगिरिम् अधिवसति गिर्याम् इति न गिरिम् अधिवसति रामः न रमा इत्युक्ते महालक्ष्मी कमलम् अधिवसति कमले वसति न तत्र कमले वसति इति भवति कमलम् अधिवसति सो जस्ट् स्मरन्तु अधिवसति अधितिष्ठति तत्र एतयोः प्रयोगे यत्र ते तिष्ठन्ति अथवा वसन्ति तस्य पदस्य द्वितीया भवति सो वेर् दे आर् स्टेयिङ्ग् अथवा लिविङ्ग् इति अर्थे अपि वनम् इत्युक्ते तत्र लिविङ्ग् इति अपि भवति तत्र तस्य पदस्य द्वितीया भवति सर्वत्र इति अस्तु तर्हि अग्रे तत्र
what is the difference between aditishtasi tishtati?
Aditishtasi va?
Aditishtati tishtati.
Adi iti upasargaha, tavadeva.
Okay.
That is why when adhi comes as a upasarga, then upasarga the rule applies. Yeah, only for that.
Bhagini? What is adhi? Adhi means what does it add to this tishtati? What meaning it adds?
Adhi ityukte tatra samanyataya on top, over iti bhavati, above iti. So when we say kamalam ityukte, on top of the kamala.
So adhi kamala.
Adhi kamala na. Adhi tishtati iti. It does not come to the kamalam, smarantu.
Okay.
Adhi vasati. Who is doing the vasanam there? Rama. She is living there. Living vasati iti, tishtati iti, arthayapi bhavati. She is doing it. So, this is going with the which word?
Adhi vasati. Yes.
Kartrupadam. So, now this becomes...
That I understood, but what is the adhi? What does adhi means?
Oh, just the upasarga? That's what I'm telling you.
What does the upasarga mean?
We use it in meanings of on top of, over, upari.
Okay.
Atava? Above iti. So, because kamalam is used there, on top of kamalam iti bhavati, adhi vasati, upari.
Okay.
Kamalam upari.
Thank you.
Tatha eva tatra kshirabdim. Kailasa girim iti in iti arthe api bhavitum arhati in on top of above iti. Aduna tatra radha bhagini patatu next example agrima udaharanam
bina ityasya purvam dvitiya tritiya panchami api vaidehi ramam bina na viharati.
So, meaning tatra artaha kaha bhagini?
Vaidehi is Sita. Sita will not be there without Rama.
Viharati iti.
Actual meaning of viharati is being.
Viharam, udyane viharam kurmaha iti api bhavati kalu. Viharati iti yukte. So, atati iti arthe athava bhramati athava kevalam harati asti chet taking iti api bhavati kintu vi harati iti asti viharaha. So
okay,
in the vane vanam I think that is the prasanga here. Vane ramam vina na viharati iti. So tatra yada vina iti padam agachati, vina iti avyaya padam, tada tasya purvam dvitiya bhavati. So vina takes on three different vibhaktis, that is why I put these two also. Dvitiya tatra vaidehi ramena vina na viharati. Panchami vaidehi ramat vina na viharati iti api bhavati kintu atra asmakam vishayatu dvitiya asti ataha dvitiya eva tatra dattavati. So for vina three vibhaktis can come into play and one of them is dvitiya. So, vaidehi ramam vina na viharati. Meenaha jalam vina na jivati iti. Manushyaha jalpanam vina na jivanti. Iti api bhavati. Kalu?
Yes, ma'am.
Jalpanam iti smaranti va? Astu. Apicha, agre patatu bhagini, radha bhagini?
Krishayaga aharam vinapi jivanti.
Tatra vina asti, kintu tatra api iti yojitam tena saha aharam vina api jivanti, kintu mukhyamshaha tatra smartavya vishayaha tatra tu uktavati upari vina agachiti che tasya purvam dvitiya bhavati. These you will see later, kintu smarantu, vina iti shabdasya purvam dvitiya bhavati iti.
Yes.
Apicha, you can also keep this in mind. Astu. Agre, tatra, ha, agrima vargam na, agrima saptahe, asmakam vargah na bhavishyati. So, that is a Thanksgiving holiday here. So, long, long weekend, vargah na bhavishyati. Atha, aham chintitavati, adhya, avishishtan, abhyasan, samapayamaha iti. The remaining abhyasas we can finish today. They are easy. They are compared to what we have been doing, these are very easy. Actually, punasmaranam. So we will finish these. And then in the remaining time, we can start on dvikarmaka dhatuhu iti. Tasi arambha abhavat. Kintu we can, we'll see how it goes. But let's go and work on these. So, एषः आसीत् अन्यः गृहपाठः इत्युक्ते तत्र एतानि पदानि दृष्ट्वा तत्र किं भवति तत्र सर्वनामशब्दानां द्वितीयरूपाणि कृत्वा आगच्छन्तु इति पोस्ट् कृतवती सर्वे कृतवन्तः इति मन्ये एकवारं कुर्मः अग्रे तत्र पुनः तुलसी भगिनी करोति वा दृश्यते वा
I'm beginning, the font is too small.
Ha, aduna?
Good, thank you.
Karatu.
Pratama vibhakti vachananu vachananu kadam titiya vibhakti rupani likantu.
Ha, tatra kimasti vachana anugunam vachana anugunam. Ittikte kim?
According to the guna of the vachan.
Ha, anugunam vachana anugunam. Looking at the rupam of the vibhakti, dvitiya vibhakti rupani likhantu iti. Anusva tatra hindi api asti. Astu. Tatra, do the first line.
Aham ramam.
Na, tatra ramam nasti. What you are doing there is aham iti prathama vibhakti. And you are going to supply dvitiya vibhakti for it. Kim bhavati?
Aham, maam.
Haan.
Bhavan, bhavan.
Haan, tatra, etat karo to bhagini, 1, 2, 3.
Okay.
Haan, tvam.
Maam, tvam, yuvam.
No, no. See, these are all prathama. So you are going to do the dvitiya for them. Dvitiya rupam kim iti. Krutavati va, abhyasam krutavati va?
Yeah, but I don't think I remember.
Haas tatra, ita karutu, tvam iti yushmad shabdaha. Tasi rupani vadatu, ekavaram, prathama dvitiya.
Tvam yuvam yuvam.
Tvam yuvam yuvam.
Tvam yuvam yuvam.
Iti prathama. Dvitiya?
Tvam yuvam yushvan.
Iti dvitiya. Adhuna tvam ityasya krute kim bhavati?
Tvam.
Tvam iti bhavati. Tatha eva sa iti karotu prathama dvitiya?
Sa te taha, tam te taha.
Haan, kim bhavati?
Tam.
Tam. Uttamam. Astu agre api karotu?
Bhavan.
Eka varam uktva karotu prathama dvitiya.
Bhavan, I don't know the prathama dvitiya bhavan.
Bhavan bhavantau bhavantaha.
Bhavan bhavantau bhavantaha.
Bhavam
bhavantau
bhavantam.
Bhavan
bhavantam
bhavantam.
Kopi vadatu bhavan ityasya dvitiya bhavati rupa.
Bhavantam bhavantau bhavantaha.
भवन्तं भवन्तौ भवतः इति भवति तत्र तर्हि तत्र किं भवति
भवान् भवन्तौ
हा तत्र किं
भवन्तौ द्वितीय
न न भवान् इति वचनं किं
भवान् एकवचनं
हा तदेव करणीयं खलु तत्र भवान् भवन्तौ भवन्तः अस्ति चेत् द्वितीया भवन्तं भवन्तौ भवतः अस्ति चेत् यु हेव् टु मेच् द फस्ट् एकवचन वित् एकवचन.
सो भवन्तं
भवन्तं सः इति वदतु.
सः तौ ते सः तौ ते तं तं तौ ते
तं तौ
तं तौ तान् सः
तं तथा एव one thing we need to remember, whatever happens to saha, it will happen with a, that's all. So what atra kim uktavati
saha tavte tam tavtan
na atra rupam kim uktavati dvitiya
tam tavtan
na na say one bhagini tatra saha ityasya dvitiya kim bhavati
सः तौ ते
रूपाणि मास्तु रूपाणि मास्तु केवलं सः इत्यस्य द्वितीया किम् इति ओन्लि फार् सः वट् इस् द्वितीय आफ् इट् द्वितीयविभक्ति
तौ तौ
न न तौ नास्ति अस्तु अग्रे तत्र रामं तथा नास्ति तत्र कोऽपि वदति वा सः इत्यस्य द्वितीया किं तं सः इत्यस्य तं भवति चेत् एष इत्यस्य किं भवति दट्स् वाट् ऐ वास् ट्रैङ्ग् टु से वाट् हेपन्स् टु सः विल् जस्ट् टेक् ए इन् द बिगिनिङ्ग् फार् एष सो तम् अस्ति चेत् एतं भवति तत्र तान् अस्ति चेत् एतान् इति भवति सो दट् इस् द वे टु रिमेम्बर् इट् इति अस्तु भगिनि सम्यक् अग्रे सुचिरा भगिनी करोति वा भवत्याः
भवत्याः भवती भवत्यौ भवत्याः प्रथमसक्ति भवतीं भवत्यौ भवतीः
तर्हि तत्र किं भवति भवतीः स्मरन्तु स्त्रीलिङ्गे अतः विसर्गः आगच्छति
अहम् आवां वयम् इस् प्रथमविभक्ति माम् आवाम् अस्मान्
तर्हि तत्र
अस्मान् अस्मान्
अस्मान्
अहम् आवां वयं माम् आवाम्
आवामेव द्विवचने सामान्यतया तदेव प्रथमा द्वितीया समानरूपाणि अस्तु भगिनि अग्रे गिरिजा भगिनि
भवन्तौ समा ये भवन्तौ भवन्तौ प्रथमा द्वितीय
सम्यक् सम्यक्
समरूपाणि
समरूपाणि
तत्र काः इति
किं के कानि
न न न काः इति फस्ट् वुल् स्टार्ट् वित् लिङ्गम् अण्ड् देन् वुल् डिसैड् सो काः इति दीर्घाकारविसर्गः अतः जानीमः तत्र स्त्रीलिङ्गः अस्ति इति अतः किम् उक्तवती
काः
काः एव तत्र
भवत्यौ भवत्यौ
एव द्विवचने अस्ति भवत्यौ एव
भवत्यौ
उत्तमं तत्तु महोदय करोति वा
काः कम्
तत्र एकवारं प्रथम द्वितीय वदतु का इति प्रथमा अस्ति एकवारं प्रथमविभक्ति वदतु लतावत् भवति
का
द्वितीय
काम के काः
काम के काः अधुना का इत्यस्य किं भवति तर्हि
काः काम
काम अत्र
द्वितीया विभक्ति काम
अत्र एषा इत्यस्य सा इत्यस्य किं भवति
सा ते ताः तां ते ताः
सा इति तां भवति चेत् एषा इति किं भवति
एषा ते एताः एतम् एताम् एते एताः
न न न महोदय तत्र एषा इति एकवचने प्रथमविभक्ति अस्ति अतः एकवचने द्वितीयविभक्ति किं भवति
एताम्
एताम् सो वाट् ऐ वास् ट्रैङ्ग् टु सेव् देर् सा इति ताम् अस्ति चेत् एषा एतां भवति सो यु आर् अटेचिङ्ग् ए इन् द बिगिनिङ्ग् दट्स् आल् सो तत्र एताः द्वितीया किम्
एताः एताः समारूपणि
समानरूपम् एव किमर्थं तत्र दीर्घाकारान्त स्त्रीलिङ्गपदं तर्हि तत्र सो सर्वनामस्थान सर्वनामशब्दाः दे आर् डिफिकल्ट् टु रिमेम्बर् सो एस् गृहपाठं सर्वे कृपया अभ्यासं कुर्वन्तु गो ओवर् आल् आफ़् दीस् आर् वि हव् बीन् ओवर् दीस् मेनि टैम्स् बट् गेट् टु नो द द्वितीय विभक्ति फार् आल् आफ़् दीस् अण्ड् इट् जस्ट् टेक्स् मोर् प्राक्टीस् बिकास् दे आर् दे बिकम् सो डिफ़्रेण्ट् इति कृत्वा लैक् का कः का सः एषः अपि च अहम् अस्मद् इति युष्मत् शब्दः द्वितीया दे नीड् टु बि प्राक्टीस्ड् अस्तु तर्हि तदेव अस्ति अत्रापि वट् एवर् वि डिड् नौ सो कुर्मः वा अथवा तदेव अस्ति तत्रापि अस्तु एकवारं कुर्मः झटिति रवीन्द्रमहोदय वदति वा किं महोदय अभ्यासं अधुना 11th तत्र एकादश तत्र बालकः इति दत्तं प्रथमे स्तम्भे जानाति द्वितीयस्तम्भे न जानाति इति तत्र सर्वत्र द्वितीयां योजयित्वा करणीयं तत्र उदाहरणम् एकवारं पठित्वा करोतु महोदय
उदाहरणं बालकं तं जानाति
बालकः
बालकं बालकः तं जानाति बालकः एतं न जानाति
तत्र सः एषः इत्यनयोः कृते तम् अपि एतम् इति भवति
अग्रे बालकः एतां जानाति बालकः तां न जानाति बालकः भवन्तं जानाति बालकः मां न जानाति बालकः भवतीं जानाति बालकः तत् न जानाति
सम्यक् महोदय तत्र तत् इति किमर्थं तत्र परिवर्तनं न भवति समानं भवति इति अस्तु सम्यक् महोदय अग्रे अन्य कोऽपि करोतु तत्र पुनः तनुजा भगिनी करोति वा अग्रे
बालकः तेषां जानाति ते इत्युक्ते
द्वितीया तेषाम् इति तत्र षष्ठी भवति खलु
ते इस् द्विवचनस्त्रीलिङ्गं
द्विवचनस्त्रीलिङ्गे भवति अथवा
पुल्लिङ्गे बहुवचनं भवति
न न न तेन नास्ति एकवारं वदतु सः तौ ते द्वितीया खलु
द्वितीया
बालकः
बालकः तान् जानाति बालकः ताः न जानाति ताः स्त्रीलिङ्गं बहुवचनम्
अतः तत्र समानरूपं ताः
ताः न जानाति बालकः एताः जानाति
एताः इति प्रथमविभक्ति
प्रथमविभक्ति
एताः प्रथम
एताः प्रथम दट् इस् स्त्रीलिङ्गं
स्त्रीलिङ्गे पुंलिङ्गे ते इति भवति खलु ते अथवा एते इति भवति बहुवचने एताः इत्यस्य द्वितीया अधुना बालकः
एतान्
लिङ्गं किम्
एताः स्त्रीलिङ्गं बहुवचनं
सत्यं तत्र सो वाट् आर् वि ट्रैङ्ग् टु डू देयर् इट्स् गिवन् इन्
बालकः एताः न जानाति वेन् वि कन्वर्ट् इन् टु द्वितीया बहुवचनं बहुवचनम् आकारान्त स्त्रीलिङ्गम्
अतः तदेव
एव तिष्ठति बालकः एताः जानाति एते इत्युक्ते द्विवचनं पुल्लिङ्गं प्रथमा अतः द्वितीया समानम् अस्ति
समानं नास्ति तत्र पुंलिङ्गे समानं नास्ति स्त्रीलिङ्गे समानम् अस्ति पुंलिङ्गे सः तौ ते तं तौ तान् स्त्रीलिङ्गे एव बहुवचने समानं प्रथमा द्वितीया दीर्घ आकारान्त
एते इत्युक्ते द्विवचने पुल्लिङ्गं
न तत्र क्षमताम् एते इति एताः इति अस्ति स्त्रीलिङ्गे क्षमतां समानमेव मम एव भ्रमः अभवत् सम्यक् भगिनि समानमेव
एते इस् पुल्लिङ्ग् और् स्त्रीलिङ्ग् एते
तत्र ओके वी केन् टेक् इट् टु वेस् बिकास् इट्स् गिवन् एताः वी केन् टेक् इट् इस् स्त्रीलिङ्ग लैक् यु सेड् or we can take it as pumlinga also she they can be referring to anything that he knows these girls
okay
but he does not know these boys iti
okay
tatra eti pumlinge asti chet kim bhavati
bahuvachanam
pumlinge
bahuvachanam strilinge dvivachanam
satyam pumlinge bahuvachanam bhavati chet dvitiya kim bhavati
etan
एतान् इति भवति सो यू केन् से इट् दट् वे आल्सो बालकः एताः जानाति एतान् न जानाति
न जानाति
तदपि भवति वी केन् टेक् इट् बोत् वेस् देर् सो मेनि यू केन् मेक् फोर् सेण्टेन्सस् देर् आक्चुलि
ओके
अस्तु धन्यवादः भगिनि अग्रे तत्र तुलसी कृतवती किल द्विवारं तत्र सुन्दरं महोदय करोति वा
यस् भगिनि विच् वन्
भवन्तः अधुना
ओके भवन्तः बालकः भवन्तं जानाति
तत्र भवन्तः इति पुनः वचनं किं
भवन् ओ ओके भवन्तः बहुवचनं सो भवन्तः ओन्लि
भवतः
जानाति तानि तानि
लिङ्गं प्रथमं
किं किं सो लिङ्गं तान् तानि लुक्स् लैक् बहुवचनम् आफ् नपुंसकलिङ्गम्
अतः
सो किं के कानि किं के कानि सो तानि एव
सम्यक् अतः बालकः
तानि न जानाति
अग्रे
देन् बालकः भवत्यः सो भवत्यः बहुवचनम् आफ् भवती सो भवती नदीः भवतीः बालकः भवतीः जानाति
सम्यक्
अहम् आवां वयं सो वयं बहुवचनम् अस्मत् शब्दः सो द्वितीया इस् अस्मान् सो बालकः अस्मान् न जानाति
तावदेव अस्ति अस्तु तत्र आक्चुलि सर्वनाम शब्दास् आर् कन्फ्यूसिङ्ग् to do vibhaktis with but with practice it will become easier so astu good
ma'am ma'am one thing I want to ask bhavatah bahuvachanam dvitiya bhavatah shashti api
dviti bhavati halanta halanta shabdanam sarvatra etadrushah eva bhavati so वाट् हेपन्स् वित् हलन्त प्रातिपदिकं प्रातिपदिकं किम् अस्ति तत्र भवत् अस्ति सो वेन् दट् हेपन्स् द्वितीया बहुवचने चतुर्थ पञ्चमी एकवचने षष्टि एकवचने दे आर् आल् सिमिलर् सो ओन्ली बै लुकिङ्ग् अट् द सेण्टेन्स् वी केन् टेल् वेदर् इट् सपोस् टु बि द्वितीया अथवा पञ्चमी अथवा षष्टि
पञ्चमी षष्टि एकवचनं and bhavatah pullingam bahuvachanam
yeah so when you Vithiya. When you all practice bhavan vibhakti table pay special attention to that bhavatah and remember that for halanta it happens like that
bhavatah namakim like we say
that we so started that with that
singular yeah
that is shashti bhavatah namakim iti
shashti okay
samyak
thank you
agree so this is familiar we have actually done this table before but ekavaram patitva tatrapi so what is needed there is ekavachane dattam tasya roopam bahuvachane kim bhavati iti kurmaha tatra table kaha patati tatra asmita bhagini patati va एकवारं केवलं तत्र इकारान्त तत् सर्वं मास्तु रूपाणि पठतु जस्ट् रीड् एकवचने बहुवचने
इकारान्तः हरिं पुलिङ्ग् हरिं स्त्रीलिङ्गीं
न न न तादृशं न भगिनि हरिं हरिन् इति उक्तवती वा एकवचने हरिं बहुवचने हरिन् इति तथा करोतु प्रथमस्तम्भे एव डू द फस्ट् कालम्
फस्ट् कालम् ओके हरिं हरीन् गुरुं गुरुन् पितरं पितृन्
पितॄन् तत्र दीर्घरुकारः
दीर्घरुकारः
पितॄन्
पितॄन् कर्तां कर्तृन्
कर्तां तत्र पुनः वदतु
कर्तारं कर्तॄन्
तत्र पितरं कर्तारम् इति भवति तत्र ऋकारान्त प्रातिपदिकं प्रातिपदिकं वदति वा पितरं कर्तारम् इति
कर्तृ
कर्तृ पितरं
पितृ
पितृ तथा एव मातरम् अस्ति चेत्
मातृ
मातृ अस्तु अग्रे पठतु
मतिं मतीः धेनुं धेनुः मातरं मातुः
तत्रापि पुनः पश्यन्तु सामान्यतया द्वितीयविभक्ति स्त्रीलिङ्गे विसर्गसहितः भवति इति. मतीः, नदीः, धेनुः, मातृः इति. हा, अनपुंसकलिङ्गे
दधि, दधीनि, मधु, मधूनि.
हा, इति नपुंसकलिङ्गे भवति रूपाणि. अस्तु अस्तु, अग्रे उदाहरणं पठित्वा तत्र प्रथम अभ्यासं करोतु भगिनि.
भारवीः,
तत्र उदाहरणं पठतु एकवारम्.
उदाहरणं
तत्र किं उदाहरणं? रविः इति अस्ति, लिङ्गं दत्तम् अस्ति.
पुल्लिङ्ग् एकवचनं, रवीं बहुवचन, रवीन्.
हा अस्तु, अग्रे करोतु.
भारवीः पुल्लिङ्ग् भारवीं.
भारवीः
भारवीः एकवचनं, द्वितीया भारीं.
तत्र भारवीः, तत्र वाट् वी आर् सपोज् टु डू वित् दिस् टेबल् इस् वी हेव् टु कम्पेर् इट् वित् विच् वर्ड् इस् इट् मेचिङ्ग् वित्. सो भारवीः, इफ् यु लुक् अट् द टेबल्, विच् वर्ड् डस् इट् मेच्? हरिः. हा, तथा एव भवति तत्रापि. भारवीः,
भारवीः भारीं, भारीन.
भारीन कथं भवति तत्र? पश्यतु, हरि इत्यस्य एकवचने द्वितीया किं भवति? अत्र उपरि अस्ति हरिम्, अपि च बहुवचने किं भवति?
बहुवचने हरिन्,
हरिन् भवति खलु. तत् जानीमः वयं, हरि इति शब्दं जानीमः. तथा एव, यतोहि तत्र भारवीः इति पुंलिङ्गपदम्, अपि च ह्रस्व इकारान्त अन्तम् अन्ते ह्रस्व इकारः विसर्गः अपि अस्ति, हरिवत्, हरिः वत्, तर्हि रूपाणि समानानि. सो दे वाण्ट् अस् टु यूस् दीस् एक्साम्पल्स् टु कम् अप् वित् एकवचन, बहुवचन, द्वितीया फार् आल् आफ् दीस्. सो किं भवति अधुना वदतु.
भारवीः एकवचनं, भारवीं, बहुवचन भारीन्.
भारीन् कथं भवति?
भारवीन्, भारवीन्.
तत्र सम्पूर्णपदम् आगन्तव्यं. हरीन् कथं, किमर्थं भवति? हरिः,
हरिः.
हा, सो द लास्ट् लेटर् देर् इस् रि, सो हरीन् भवति. वि हियर् वि हेव् टु टेक् द फुल् भारवी इति, भारवीन् इति भवति खलु.
खलु, अग्रे
हा करोतु. अधुना वदतु, शौरिः कीदृशं पदम्?
शौरिः पुनर् हरिः.
पुनः हरिवत्.
हरिवत्,
हरिवत् इत्युक्ते लैक् हरि इति.
हरिवत् वत्. शौरिः, शौरीं, द्वितीया एकवचन, शौरीन् द्वितीया बहुवचन.
अस्तु, सम्यक्. स्पष्टं खलु अधुना?
आं भगिनि.
सो दीस् टेबल्स् नीड् टु बि प्राक्टिस्ड् आल्सो. हरि, गुरु, अण्ड् राम, अण्ड् देन् पिता, माता. पिता माता जानन्ति चेत् कर्तृ समा आल्मोस्ट् सेम्, एक्सेप्ट् दीर्घ भवति तत्र. अग्रे आगच्छति, वदामि. अस्तु, ऐश्वर्य भगिनी करोति वा अग्रे?
भगिनी, शरदि, शरदिं, शरदीन्.
हा, ओ तत्र एकक्षणं, तत्र अर्थाः के इति. भारवी इत्युक्ते, भारवीः इत्युक्ते अहं दृष्टवती ग्रन्थकारः इति. आक्चुलि भारवीः इति किरातार्जुनीय इति ग्रन्थं लिखितवान्, तस्य नाम भारवीः इति. अपि च शौरिः इत्युक्ते कः
शौर्यम्
यस्मिन् शूरत्वम् अस्ति शूरः किन्तु शौरिः इस् गिवन् टु अगाड् विष्णुः कृष्णः शौरिः इति अपि अस्ति दे हेव् मेनि नेम्स् अण्ड् दट्स् वन् आफ् दम् हा अपि च शरदिः इत्युक्ते तत्र तूणः इति क्विवर् वेर् दे स्टोर् बाण एरोस् रिसेप्टकल् फार् एरोस् शरदिः इति तूणः इति अपि अस्ति तूणः इति तुणीरः इति अपि अस्ति महोदय तूणः इति अपि दृष्टवती हा तुणीरः इति परिचितं पदं तूणः शरदिः हा यथा भवती अधुना उक्तवती शराः सन्ति इति तत्र शरदिः इति भवति शराः अस्मिन् सन्ति
नामायाम् एक नाम अस्ति भगिनि शरतूणाभजङ्गिका तस्याः जङ्घं जङ्गा जङ्घौ जङ्घे एताः सन्ति
शरदिः अस्ति इति वा
शरतूणा
अस्तु शरतूणा इति अपि अस्ति सम्यक् हा तर्हि तत्र शरदिः
शरदिं शरदीन्
हा अपि च अग्रे
परिधिः परिधिं परिधीन्
तत्रापि परिधीन् तत्र परिधिः इति कोऽपि जानन्ति वा सर्कम्फरेन्स् इति भवति सरौण्डिङ्ग् सर्कम्फरेन्स् इति परिधिः इत्युक्ते लैक् वृत्तिः इति सुन्दरं महोदय पूर्वम् उक्तवान् परिधिं निर्दिशति सो इट् क्रियेट्स् दट् बौण्डरि इफ् यु पुट् ए फेन्स् अरौण्ड् सम्थिङ्ग् सो परिधिः तदा परिधिः भवति
सूर्यस्य पर्यायवाचकमपि कदा श्रुतवती एवं
परिधिः तव इति वा अस्तु न
जानामि
परिधिः अस्ति वा
अस्तु
ओ सम्यक् अस्तु अस्तु परिधिः तत्रापि तर्हि तत्र सरौण्डिङ्ग् इति अर्थे भवति सर्कम्फरेन्स् इति जनरलि बट् परिधिः सो एन्सर्क्लिङ्ग् संथिङ्ग् एन्क्लोसिङ्ग् संथिङ्ग् इति अपि वदामः तत्र सो दट् इस् संथिङ्ग् न्यू उत्तमं हा अस्तु भगिनि अग्रे शैलिनी भगिनी करोति वा
सुमतिः मतिः श्रीलिङ्ग मतिः मति मतः मतिं मति मतिः सुमतिं सुमतिः
सम्यक् तत्र सुमतिः इत्युक्ते शोभना मतिः यस्याः सा इति दृष्टं मया शोभना इत्युक्ते तत्र उन्नतगुणः इति अथवा तत्र किं ग्रेस् सुगुणवती अपि च गुड् इण्टलेक्ट् अपि हा इण्टलेक्ट् अपि बुद्धिः तीक्ष्णबुद्धिवती सो इण्टेलिजेण्ट् ग्रेस्फुल् इति सर्वं भवति तत्र सुमतिः इति अग्रे भगिनि वाराणासी इति वयं वदामः किन्तु तत्र वाराणासी इति नास्ति पश्यतु
वाराणसिः
किन्तु तदेव काशीः एव वाराणसिः वस्तुतः वाराणसी क्षमतां वाराणसी वाराणसीं
वाराणसी
वाराणसीं वाराणसीः तत्र अहं दृष्टवती वर्णा अपि च असी इति नद्यौ सो इट् सीन्स् इट् इस् द टु रिवर्स् पुट् टुगेदर् बिकेम् वाराणसी इति वर्णा इति एकं एका नदी असी इति अन्या नदी सो द्वे नद्यौ मिलित्वा वाराणसीः इति सो देर् मस्ट् हव् बिन् सम् मीनिङ्ग् बिहैण्ड् देम् तदेव अस्तु अग्रे रमेश महोदय करोति वा
आं बन्धुः बन्धुं बहुवचनं बन्धुः
तत्र बन्धुः वचनं तत्र लिङ्गं किं
स्त्रीलिङ्गं
न न बन्धुः तत्र दत्तमस्ति पश्यतु
इट् इस् लैक् धेनुः
न तत्र महोदय तत्र आवरणे दत्तं किल पुंलिङ्गं पुंलिङ्ग् बन्धुः पुंलिङ्गमस्ति चेत् विच् वुड् यु कम्पेर् इट् वित् दट् वि नो
गुरुः गुरुः
अतः
गुरुं गुरूणे
गुरुं गुरून्
बन्धुने
बन्धुं
बन्धून्
बन्धून् तत्र बन्धु इत्युक्ते स्वजन इति भवति स्वजनः इति अपि च भीरुः
भीरुः पुल्लिङ्गं भीरु भीरुं भीरून् भवति
भीरुं भीरून् इति भवति भीरुः इति जानाति वा अर्थः कः इति
न जानामि
बिभेति इति सो दे दे क्रियेट् भय भीतिः इन् अदर्स् वेन् वि लुक् अट् देम् भीरुः भी इति धातुतः आगतः बिभेति इति अस्तु
इट् इस् नाट् कवर्ड् कवर्ड् भीरुः
भीरुः इति कवर्ड् नास्ति इति मन्ये भगिनि
एवमेकं श्लोकमस्ति भगिनि भीरूणाम् अभयप्रदो
सो भीरूणाम् अभयप्रदा वा सो भीरु सो बिभेति इति सो इफ् वी आर् गिविङ्ग् अभय टु देम् सो हियर् दट् वुड् मीन् भीरुः हू आर् अफ्रेड् हू आर् अफ्रेड् सो दट्स् वै अभय इस् गिवन् टु देम् तस्मिन् अर्थे भवति सम्यक् भीरुः इत्युक्ते द वन् दट् इस् बीङ्ग् अफ्रेड्
ओके
किन्तु तत्र अहं श्रुतवती भीमः इति ही क्रियेट्स् भय भीति इन् अदर्स् इति भयं भीतिः इति किन्तु भीरुः इति प्रायशः तथा एव यथा भवती उक्तवती अभयं ददाति चेत् सो those will be reassured who are afraid so bhiruhu ityukte prayasha tadeva samyak ha agre tatra brunda bhagini karoti va
am bhagini shrota shrotru it is like pitra
ha
shrotru
ha iti pratipadikam
pratipadikam means the person who is teaching or reciting
listening
shrotra
shru iti dhatuh shravane shrota iti pumlinge bhavati iti datam tatra pumlinge so now which one will you use to get the dvitiya pashyatu
shrotaram
श्रोतरं
श्रो बहुवचनं श्रोतॄन्
तत्र पितरं पितॄन् इति भवति
पितॄन्
श्रोतारं भवति वा महोदय
श्रोतः श्रोतारं
कर्तृपदवत् भवति वा
पूर्वपृष्ठे कर्तारम् अस्ति कर्तारम्
आं भगिनि इट् इस् लैक् धाता
अस्तु
श्रोतारं श्रोतॄन्
श्रोतॄन् बहुवचने समानं श्रोतॄन् अस्तु तत्र कानिचन पदानि दीर्घरूपेण भवन्ति कर्तृ इति कर्तारं भवति दाता अपि दातृ इति दातारं भवति तथा एव दातृ दातारं श्रोतृ श्रोतारम् अपि च तत्र स्त्रीलिङ्गे श्रोता इति किं भवति इति कोऽपि वदतु श्रोत्री इति भवति कर्त्री दात्री इति भवति
श्रोत्री
दीर्घ इकारान्त अग्रे
माता स्त्रीलिङ्गं मातरं
मातृः स्त्रीलिङ्गः तथा मातृः तत्र पितॄन् भवति पुंलिङ्गे पितरं पितॄन् अस्तु तत्र तर्हि द्वौ अभ्यासौ स्तः इदानीमपि कुर्मः वा अस्तु सो समापयामः देन् आफ्टर् देट् विल् ऐ एम् कीपिङ्ग् द्विकर्मकधातवः इति अन्ते ऐ विल् डू देट् लास्ट् आल्सो देट् लेखननियमाः तर्हि तत्र एकं कुर्मः इफ् यु आर् आल् ओके वित् दिस् शुड् वि डू दिस् मिलित्वा द नेक्स्ट् अभ्यास सम्यक् वा
सम्यक्
अस्तु तर्हि तत्र शिष्यः गुरुं नमति इति केवलं तत्र एकवचने एव सुलभः एव भक्तः हरिः नमति
हरिं
नमति सः कविः नमति कविं तत्र सर्वत्र प्रश्नाः सन्ति चेत् पृच्छन्तु किन्तु जानीमः हरिः हरिं कविः कविं सा मुरारिः नमति बालकः माता नमस्करोति मातरं बालिका पिता नमस्करोति गृहिणी धेनुः नमस्करोति एकवचने धेनुं ग्रामीणः उदधिः पश्यति तत्र उदधिः इति किम् इति कोऽपि वदतु जलधिः सागरं समुद्रम् एक्चुलि वाटर् बाडि इति अपि अस्ति वाटर् उदकम् इति अस्ति खलु वाटर् उदकम् इति अपि तत्र उदधिः इति तत्र पश्यन्तु उदधिः शरधिः दट् विच् कण्टेन्स् दट् इति अर्थे प्रायशः सो लुकिङ्ग् अट् दोस् वर्ड्स् शरधिः इति किम् आसीत् दट् द वन् दट् कण्टेन्स् शराः शरान् इति तत्र उदधिः पुनः सो दट् द कण्टेन्स् उदकं जलम् इति कृष्णः वेणुः वादयति कृष्णः वेणुं वादयति अध्यापकः वटुः बोधयति वटुः इति कोऽपि वदतु करेक्ट् स्टूडेण्ट् ब्रह्मचारी इति छात्रः ब्रह्मचारी तत्र ब्रह्मचारी अस्ति वा ब्रह्मचारी अस्ति वा?
ब्रह्मचारी
ब्रह्मचारी
न ब्रह्मचारी ब्रह्मचारी
ब्रह्मचारी
ओके
हरि हरि
न न हरि हरि तत्र योगी योगिन् अस्ति चेत् किं भवति
योगी योगी ब्रह्मचारिन् ब्रह्मचारी
अधिकारी अस्ति चेत्
प्रातिपदिकारिन्
अधिकारिन् प्रातिपदिकम् अधिकारी इति भवति हा दीर्घ इकारान्त पुंलिङ्गस्य कृते भवति चेत् तत्र प्रायशः नकारान्त प्रातिपदिकम् इति अनुमानं कर्तुं शक्नुमः स्नेहि हा किं प्रश्नः अस्ति वा स्नेहितः भ्राता आह्वयति भ्रातारं न भवति इति मन्ये भ्रातरम् एव सो वाट् ऐ वास् टोल्ड् अण्ड् हौ वी केन् रिमेम्बर् दिस् इस् जनरलि सम्बन्धिः अस्ति चेत् तत्र दोस् हु आर् रिलेटेड् लैक् भ्राता पिता माता देर् दीर्घाकार डजन्ट् कम् कर्ता इति तत्र सम्बन्धिः नास्ति बन्धुः नास्ति अपि च दाता इति बन्धुः नास्ति तत्र दीर्घ आकारः भवति जस्ट् समथिङ्ग् टु रिमेम्बर् वित् एक्सेप्शन्स् विल् बि देयर् सो फार् दट् वे फार् माता पिता भ्राता वि विल् रिमेम्बर् द करेक्ट् फार् श्रोता आल्सो श्रोतारं भवति बिकास् नाट् ए बन्धु सम् वे टु रिमेम्बर् अग्रिम अभ्यासः तत्र आवरणे दत्तानां शब्दानां द्वितीया बहुवचनान्तेन रूपेण रिक्तस्थानानि पूरयत उदाहरणं दत्तं छात्रः गुरून् इति गुरु इति प्रातिपदिकं गुरुः इति पुंलिङ्गे एकवचने गुरून् इति भवति तर्हि तत्र सर्वत्र अधुना बहुवचने कुर्मः अस्तु वन तत्र किं शब्दवत् इति वदन्तु तदनन्तरं करोतु सो वनपालः कपि पुंलिङ्गे दूरी करोति हरिः कपिः वनपालः कपीन् दूरीकरोति भक्ताः मुनि मुनीन् प्रणमन्ति धात्री इत्युक्ते किं मदर् लैक् मदर् फिगर् इति जगद्धात्री अस्ति खलु
जगद्धात्री
धात्री शिशु पालयति तत्र किं शब्दवत् गुरुशब्दवत् गुरून् शिशून् सैनिकाः शत्रु मारयन्ति दीर्घ शत्रून् तत्र पुनः गुरुशब्दवत् गृहस्थः अतिथि सत्करोति मतिः न मतिः आक्चुलि तत्र अतिथिन् इति प्रातिपदिकम् अस्ति वा अतिथिः पुंलिङ्गे न तत्र हरिवत् एव हरिवत् हरीन् इति अतः अतिथीन् चतुरः युक्ति स्त्रीलिङ्गे उपदिशति नदीवत् मतिवत् मतीः नदीः अतः युक्तीः उपदिशति छात्रः कालिदासस्य कृति स्त्रीलिङ्गे पठति कृति स्त्रीलिङ्गे अस्ति चेत् प्रथमा किं भवति
कृतिं
कृतिम् इति द्वितीया, प्रथम
कृतिः
कृतिः कृतिः भवति, अतः तत्र द्विवचने अधुना अपि च द्विवचने द्विवचने न द्वितीया विभक्ति बहुवचने
बहुवचने कृतिः कृतिः
कुत्रीः न कृतिः
मतिः
प्रधान अध्यापकः पितृ निमन्त्रयति कार्यकर्त्री मातृ मेलयति कार्यकर्त्री इति अधुना दृष्टवन्तः लिङ्गं किम् पुंलिङ्गे किं भवति कार्यकर्ता भवति कार्यकर्तृ इति प्रातिपदिकं भवति तत्र कार्यकर्ता इति पुंलिङ्गे तत्र पश्यन्तु सर्वत्र अन्यत् अधुना दृष्टवन्तः खलु तत्र किं दृष्टवन्तः श्रोता इति श्रोत्री इति भवति कार्यकर्ता कर्त्री इति भवति अस्तु अन्तिमं तत्र मातॄन् इति उक्तवन्तः मातॄन् न तत्र मातृः स्त्रीलिङ्गे स्मरन्तु मातृः इति अपि च याचकः दातृ पुंलिङ्गे पश्यति दातॄन् एकवचने दातारं किमर्थं दातारं
बन्धु
सम्बन्धिकः नास्ति बन्धुः नास्ति इति तत्र सुलभः नियमः सामान्यतया दातारम् अथवा दातॄन् पश्यति इति सो इफ् यु हेव् एनी क्वशन्स् आन् एनी आफ् दीस् पृच्छन्तु अथवा पोस्ट् कुर्वन्तु बिकास् वी हेव् अण्डर्स्टुड् दीस् अण्ड् हेव् डन् दीस् थ्रू औट् I thought we'll just do this as group, so, but if anyone wants to go over any of these, please ask. Prashna hana santi chet, so for next class, viramaha, but after that, what we will do, we'll take up dvikarmaka dhatavaha, but we'll also do that lekhanam that I talked about, we'll start with that, we'll read that for a while prayashaha and then do this also simultaneously. So please, as Gruhapatham, read this and also the link I sent you. If you have any questions, let me know. Dvikarmaka dhatavaha iti, we will just take it up as like a brief introduction to Dvikarmaka. We will not get too deep into it, but definitely go over this before we meet next time. Astu tarhi tatra kopi shanti mantram patatu viramamaha.
Om Purnamadah Purnamidam Purnat Purnamudachyate पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 हरिः ओम् श्रीगुरुभ्यो नमः हरिः ओम्
श्रीगुरुभ्यो नमः धन्यवादः महोदय
धन्यवादः
सर्वेषां नमस्कारः
धन्यवादः
नमस्कारः